इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका मुदिता वेतालः मुख्य वार्ताः लोकसभा निर्वाचनस्य प्रथम चरणे सप्तदश राज्यानां केन्द्रशासित प्रदेश चतुष्टयस्य द्वयोत्तर एकशत लोकसभासनेषु शुक्रवासरे मतदानं भविष्यति। प्रधानमन्त्री नरेन्द्र मोदी अद्य त्रिपुरारयं एकां जनसभां सम्बोधितवान्। अद्य भगवतः श्रीरामस्य जन्मोत्सवः देशस्य नैकेषु भागेषु महतोल्लासेन परिपाल्यते। अमेरिकया उक्तं यत् राष्ट्रपतिः जो बाइडेनः ईरानस्य परमाणु कार्यक्रमे नूतन प्रतिबन्धान् स्थापयितुं सन्नद्धाः अस्ति। अपि च आईपीएल इति क्रिकेट क्रीडा श्रृंखलायाम् अद्य गुजरात टाइटन्स इति दलं दिल्ली कैपिटल्स दलं सम्मुखीकरिष्यति। अथ वार्ताः विस्तरेण लोकसभा निर्वाचनस्य प्रथम चरणं अद्य सायं पञ्चवादने पूर्णम् अभवत्। राजनीतिक दलैः यथासमर्थं मतदातृन् आकृष्टुं सर्वसम्भव प्रयासाः कृताः। अस्मिन् चरणे सप्तदश राज्यानां केन्द्रशासित प्रदेश चतुष्टयस्य द्वयोत्तर एकशत लोकसभासनेषु शुक्रवासरे मतदानं भविष्यति। सहैव अरुणाचल प्रदेश सिक्किम राज्ययोः विधानसभा निर्वाचनेभ्यः अपि एकस्मिन् एव चरणे शुक्रवासरे मतदानं भविष्यति। प्रधानमन्त्री नरेन्द्र मोदी अद्य त्रिपुरायां कांग्रेस कम्युनिस्ट दलं इंडिया संयुतिं च अधिक्षिपत्। अपि च उक्तं दलद्वये दक्षिण भारतस्य केरल राज्ये परस्परं विरोधिनौ स्तः। अगरतलायां नैर्वाचनिक जनसभां सम्बोधयन् प्रधानमन्त्री नामं विनैव कांग्रेस दलं आरोपयत् यत् दलस्य युवराजः उत्तरप्रदेशात् पलायितः केरले च शरणम् अधिगच्छति। अद्य भगवतः श्रीरामचन्द्रस्य जन्मोत्सवः देशस्य नैकेषु भागेषु महतोल्लासेन परिपाल्यते। अयोध्यायां रामलला मन्दिरे विशेष प्रबन्धाः विद्यन्ते। राम जन्मभूमि न्यासेन श्रद्धालूनां सौकर्याय एते प्रतिबन्धाः कृताः सन्ति। अत्रावसरे राष्ट्रपतिः द्रौपदी मुर्मुः, उपराष्ट्रपतिः जगदीप धनखड़, प्रधानमन्त्री नरेन्द्र मोदी च देशवासिभ्यः शुभकामनाः प्रदत्तवन्तः। रामनवम्याः अवसरे अद्य मध्याह्ने षोडश निमेषाधिक द्वादश वादने अयोध्या मन्दिरे विराजमानस्य श्रीरामलला इत्येकस्य मस्तके सूर्यतिलकं सुदीप्तं जातम्। विशेष क्रियाविधिना रामलला इत्येतस्य प्रतिमासां सूर्यतिलकस्थापनं सम्भवं सञ्जातम्। अयोध्या मन्दिरे रामलला इत्येतस्य प्राणप्रतिष्ठायाः अनन्तरं तत्र एतत् प्रथमं रामनवमी पर्वायोजनम् अस्ति। तावत् श्रद्धालवः अद्य प्रातः कालादेव भगवतः श्रीरामस्य दर्शनार्थं राममन्दिरं यान्ति। सकलमपि अयोध्यानगरम् अद्य सश्रद्धं सोत्साहं च रामजन्मोत्सवं परिपालयति। संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.com इत्यत्र अथ न्यूज ऑन एयर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमन्त्री अथ भारतीय जनता पार्टीति दलस्य वरिष्ठः नेता नरेन्द्र मोदी उक्तवान् यत् जपेति दलस्य नेतृत्वे राष्ट्रिय जनतान्त्रिक संयुतिः समेषां समावेशने विश्वसिति। प्रधानमन्त्री कथितवान् यत् केनापि सह भेदभावं विनैव प्रत्येकमपि जनः समेषां प्राशासनिक योजनानां लाभं प्राप्नोति। असम राज्यस्य नलबाड़ी स्थले जनसभां संबोधयन् श्रीमोदी उक्तवान् यत् निर्धनेभ्यः शुल्क मुक्त खाद्य अन्नस्य प्रावधानं यथा अवस्थमेव स्थापयिष्यते। सममेव आगामी पंच वर्षेषु त्रिकोटि संख्यकाः आवासाः निर्मास्यन्ते इत्यपि समाश्वासितवान् प्रधानमंत्री। तेन एतदपि कथितं यद् भाजपेति दलस्य संकल्पपत्रे सप्ततिः वर्षस्य अधिक आयुवर्गस्य सर्वेभ्यः वृद्धजनेभ्यः आयुष्मान् भारत योजनायाः लाभं प्रदास्यते। अनया योजनया परिवारेषु व्यय समस्या प्रायः अल्पमिता भविष्यति। अत्रांतरे प्रधानमंत्री कांग्रेस दलं कट्वालोचितवान् अथ आरोपितवान् यत् कांग्रेस दलेन असम पूर्वोत्तरस्य अन्यानि क्षेत्राणि नैव अवलोकितानि, तावत् भाजपेति दलं समावेशने विश्वसीति कांग्रेस दलं च पृथक्तावादं समर्थयति। प्रधानमंत्री उक्तवान् यत् असम राज्यस्य जैव विविधता अथ संस्कृतिः द्वयमपि एतत् अतीव समृद्धमस्ति, एतत् वैश्विक मञ्चे प्रापयितुं प्रधानमंत्री समाश्वासितवान्। प्रधानमंत्री उक्तवान् यत् केन्द्र प्रशासनेन कृषकाणां हितं निध्याय न्यूनतम समर्थन मूल्ये वृद्धिः अभवत्। अवधेयं यत् नलबाड़ी विधानसभा क्षेत्रं बारपेटा संसदीय आसनस्य अन्तर्गतमस्ति, यत्र लोकसभा निर्वाचनस्य तृतीय चरणाय मे मासस्य सप्तमे दिनांके मतदानं भविष्यति। अमेरिकया उक्तं यत् राष्ट्रपतिः जो बाइडेनः ईरानस्य परमाणु कार्यक्रमे नूतन प्रतिबन्धान् स्थापयितुं सन्नद्धाः अस्ति। विगत सप्ताहे इज़राइल देशे ईरानस्य अभूतपूर्व वायवीय आक्रमणस्य अनन्तरं अमेरिकायाः एतत् वक्तव्यम् आगतम्। अमेरिकायाः राष्ट्रिय सुरक्षा परामर्शदः अनुसारं राष्ट्रपतिः जो बाइडेनः जी सप्त देशान् समेत्य सर्वैः सहयोगिभिः सह समन्वयं कुर्वन् अस्ति। अमुना संसदि सर्वे नेतृभिः सह व्यापक विचार विमर्शः कृतः। आगामि दिनेषु अमेरिका ईरानं च समेत्य तस्य रक्षा कार्यक्रमाणां समर्थनकर्तृषु अन्यासु संस्थासु अपि नूतन प्रतिबन्धान् स्थापयिष्यति। संयुक्त अरब अमीराते विनाशकारी वर्षा कारणेन जलौघ स्थित्या जनजीवनं दुष्प्रभावितम्। मुख्य राज्यमार्गाः वर्षा कारणेन जलमग्नाः सन्ति। प्रचण्ड वात्या वृष्ट्या च अस्मिन् क्षेत्रे जलाप्लावं निध्याय अधिकारिभिः जनाः गृहेषु एव स्थातुं परामृष्टाः। विद्यालयेषु ऑनलाइन इति दूरस्थ माध्यमेन अध्ययनम् आरब्धम्। प्राशासनिक कर्मिणः च गृहात् एव कार्यं कर्तुं निर्दिष्टाः। ऋतु विज्ञान विभागेन रक्त संचेतना प्रसारिता। अत्रांतरे ओमाने वर्षा कारणेन उत्तरी ऐश शर्कियाहे अथ अदने 19 जनाः मृत्युम् उपगताः। इदानीमपि बहरीन कतर सऊदी अरब देशे प्रचण्ड वृष्टिः प्रवर्तते। आईपीएल इति क्रिकेट क्रीडा श्रृंखलायाम् अद्य अहमदाबादस्य नरेन्द्र मोदी क्रिकेट क्रीडांगणे गुजरात टाइटन्स इति दलं दिल्ली कैपिटल्स दलं सम्मुखीकरिष्यति। स्पर्धेयं अद्य सायं 7:30 समारप्स्यते। मुख्यवार्ताः पुनरेकवारम्। लोकसभा निर्वाचनस्य प्रथमचरणे 17 राज्यानां केन्द्रशासित प्रदेश चतुष्टयस्य 2-100 लोकसभासनेषु शुक्रवासरे मतदानं भविष्यति। प्रधानमंत्री नरेन्द्र मोदी अद्य त्रिपुरायां एकां जनसभां सम्बोधितवान्। अपि च आईपीएल इति क्रिकेट क्रीडा श्रृंखलायां अद्य गुजरात टाइटन्स इति दलं दिल्ली कैपिटल्स दलं सम्मुखीकरिष्यति। इति वार्ताः।